अथ सप्तमोऽध्यायः श्रीभगवानुवाच मय्यासक्तबलाः पार्थ योगं युञ्जन्मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु। सविज्ञानम् इदं वक्ष्याम्यशेषतः यज्ञात्वा नेह भूयोऽन्यत् ज्ञातव्यम् अवशिष्यते। कश्चित् यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः। अपरेयम् इतस्त्वन्यां प्रकृतिं विद्धि मे परा जीवभूता महापावो ययेदं धार्यते जगत्। जगतः प्रभवः प्रलयः तथा मत्तः पदतरं नाद्यत् किञ्चिदस्ति धनं जया मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव। रसोघम् अप्सु कौन्तेया प्रभास्मि शशिसूर्ययोः शब्दः खे पौरुषं दृशो तेजश्चास्ति विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु सर्वभूतानां विद्धि पार्थ सनातनम् बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् बलवतां चाहं कामरागविवर्जितं धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभा चैव सात्विका भावा राजसाः तामसाश्च ये मत्तये वेति तान् विद्धि न त्वकं तेषु ते मयि चतुर्विधाः भजन्ते मां जनाः सुकृतिनोऽर्जुन जिज्ञासुः अर्थार्थी ज्ञानी च भरतर्षभा एक भक्ति ही विशिष्यते प्रियो हि ज्ञानिनोत्यर्थम् अहम् स च मम प्रियः
देवां देवयजो यान्ति
मद्भक्ता यान्ति मामपि अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम् अबुद्धयः परं भावं अजानन्तो ममाव्ययम् अनुत्तमम् प्रकाशः सर्वस्य योगमाया समावृतः मूढोऽयं नाभि जानाति लोको समतीतानि वर्तमानानि चातुना भविष्याणि च भूतानि मां तु वेद न कश्चन सर्गे यान्ति परन्तप येषां त्वन्तगतं पापं जना यतोतिये ते ब्रह्म तद्विदुः कृतौ अध्यात्मं कर्म चाखिलम् विदुः युक्तके ಸದಿತಿ ಶ್ರೀಮದ್ಭಗವದ್ಗೀತಾಸು ಉಪನಿಷತ್ಸು ಬ್ರಹ್ಮವಿದ್ಯಾಯಾಂ ಯೋಗಶಾಸ್ತ್ರೇ ಶ್ರೀಕೃಷ್ಣಾರ್ಜುನ ಸಂವಾದೇ ಜ್ಞಾನ ವಿಜ್ಞಾನ ಯೋಗೋ ನಾಮ ಸಪ್ತಮೋಧ್ಯಾಯಃ.